श्री शंभो मयि करुणा शिशिरं दृष्टिं दिशन्ने सुधावृष्टिं संतापं अपाकुरु मे मन्त परमेश तव दया यास्याम् अवसीदामि यदर्तिभिः अनुगुणं इदं वागजं गजां खलु मे तव सन्नवसीदामि यदन्तकशासन न तत्तवानुगुणम् देव स्मरन्ति तव एतेषां स्मरतोऽपि नार्तिरिति कीर्तिम् कलयसी शिव पाहीति क्रन्दन्ने सीदाम्यगम् किमुचितम् इदम् आदिश्यागकृतौ माम् अन्तर्यामिन्नि असावगत्मेति आर्तिषु मज्जयसे माम् किम् ब्रूयाम् तवैरव कृपैकपत्रमहम् मन्दाग्रणीरहम् तव मयि करुणाम् घटयितुम् विभो नारम् आक्रष्टुम् तान्तु बलादरमिह मद्दैन्यमिति समाश्वसि मे त्वम् सर्वज्ञः अहम् पुनरज्ञः अनीशोऽहम् ईश्वरस्त्वमसि त्वम् मयि दोषान् गणयसि किम् कथये किम् कथये तुदति किम् दयान त्वाम् आश्रितम् आर्ततरम् माम् उपेक्षसे किमिति शिव न किम् दयसे श्रितगोप्तादीनार्ति हृदि खलु संसन्ति जगति सन्तस्त्व प्रहरा हरेति वादि फणितमलज्ञैति पालितो भवद शिव पाहीति वदोऽहम् शिव पाहीति वदोऽहम् श्रितो न किम् त्वाम् कथम् न बाल्यस्ते शरणम् व्रज शिवमार्ती स तव हरेदिति सताम् गिराहम् त्वाम् शरणम् गतोऽस्मि पालय खलमपि तेष्वी स पक्षपातान् माम् हर हर नमः पार्वती पतये
हर हर महादेव।